విష్ణు దేవో మహేశ్వర గురు సాక్షాత్ పరబ్రహ్మ తస్మై శ్రీ గురవే నమః సర్వేభ్యో నమః సర్వేషాం స్వాగతం అస్మిన్ వర్గే అస్మాకం ప్రవర్తమాన విషయ అస్తి తత్ర ప్రతియోగితాయాః సంబంధావచ్ఛిన్నత్వం ఇతి భవతి నామ తత్ర ఆదేయతాయాః అపి తత్ర అవచ్ఛిన్నత తత్ర సంబంధేన భవతి ఇతి వయం దృష్టవంతః తథైవ తత్ర ప్రతియోగితాయాః అపి భవితుం అర్హతి ఇతి వయం ఇదానీం తత్ర పఠంతః స్మః. తత్ర కేవలం తత్ర పునఃస్మరణార్థం తత్ర ఆదేయతా స్థలే తత్ర ఘటే అనేకాః ఆదేయతాః ఆసన్. ఇదానీం తత్ర ఘటే ఇవ తత్ర ప్రతియోగితా తిస్రః ప్రతియోగితాః సంతి తాసాం తత్ర పరస్పర భేదాః కథం కర్తవ్యం ఇతి ఇతి అస్మాకం మూల విషయః. తత్ర వయం ప్రాయశ తత్ర సర్వం పఠితవంతః. తత్ర తత్ర అభావస్య అతః తత్ర కేవలం తత్ర భూతలే సమవాయిన ఘటో నాస్తి ఇది ఏతస్య చిత్రస్య తత్ర భూతలే ఘటః సమవాయ సంబంధేన భూతలే నాస్తి ఇతి ఇది తస్య నైయాయికరీత్యా చిత్రమస్తి. తత్ర గృహపాఠరూపేణ భవంతః అపి సర్వే తత్ర కృతవంతః. అతః తత్ర సమ్యక్ రూపేణ అభ్యాసః అభవత్ ఇతి మన్యే. కింటు కేవలం తత్ర వర్గే అపి కించిత్ తస్మిన్ విషయే పునఃస్మరణం కృత్వా అగ్రే సరామః. తత్ర అస్తు తత్ర చిత్రం దృష్ట్వా తత్ర కించిత్ వదామః, తదనంతరం అగ్రే సరామః. తత్ర ప్రేమలతా భగిని నమస్కారః, నరసింహమహోదయ నమస్కారః, పుష్పభగిని నమస్కారః, రాజీవ్ భగిని నమస్కారః. నమస్కారం. అస్తు తర్హి తత్ర ప్రేమలతా భగిని తత్ర ఏతత్ చిత్రం తత్ర భూతలే ఘటః కేన సంబంధేన నాస్తి ఇతి ప్రదర్శయతి. సమవాయ సంబంధేన నాస్తి ఇతి ప్రదర్శయతి. అస్తు తత్ర కిం కిం అస్తి ఇతి కించిత్ వివృణోతి వా చిత్రం దృష్ట్వా. తత్ర తత్ర ప్రతియోగితా తత్ర అథవా భూతలం భూతలే కిం అస్తి ఇతి భూతలం భూతలాదారభ్య అథవా ప్రతియోగితాః ఆరభ్య
సంబంధ అస్తి సమవాయ సంబంధ అవచ్ఛేదకత
अतः तत्र एतत् कुर्मः भगिनी. तत्र तत्र घटः भूतले नास्ति अतः तत्र घटे किं भवति? घटः अस्ति घटे किं भवति?
भूतले नास्ति घटाभावः भवति.
हा घटस्य अतः
अभावः
अभावः अस्ति. अभावे अभावे अनियोगिता अस्ति. अतः घटे किम् अस्ति?
प्रतियोगिता
अस्ति. समीचीनं. हा अस्तु अतः तत्र घटः अपि अस्ति घटे प्रतियोगिता अस्ति अपि तत्र. हा अतः तत्र अनियोगिता अभावः तयोः तत्र आधारादेयभावः खलु. नाम अनियोगिता आदेयः अभावः अधिकरणम्. अस्तु अभावः अस्ति. अस्तु तर्हि तदनन्तरम्
अभावनिष्ठ अनियोगिता निरूपित प्रतियोगिता
घटे अस्ति. एषा प्रतियोगिता कीदृशी नाम तस्याः अवच्छेदकम् अस्ति वा?
एतत् प्रतियोगिता अत्र अभावविषय प्रतियोगिता स्थले समवाय सांसर्गिता अवच्छेद्यतावती प्रतियोगिता.
हा समीचीनं. हा 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 समीचीनं. हा तत्र समवायसम्बन्धेन
अवच्छिन्न
प्रतियोगिता समीचीनं हा नाम समवायसम्बन्धे अवच्छेदकता अस्ति प्रतियोगितां किम् अस्ति
अवच्छेद्यता अस्ति
अवच्छेद्यता अस्ति अतः तत्र वयं यदि तत्र दीर्घमार्गं स्वीकुर्मश्चेत् एतादृशवर्णनं कुर्मः किन्तु लघुमार्गं स्वीकुर्मश्चेत् किं वदामः समवायसम्बन्धावच्छिन्न
समवायसम्बन्धावच्छिन्न अवच्छेद्यतावति प्रतियोगिता इति
हा तत् दीर्घ सः दीर्घमार्गः किन्तु लघुमार्गः समवायसम्बन्धावच्छिन्न प्रतियोगिता
प्रतियोगिता
तथैव अतः तत्र प्रतियोगितः एकमेव अवच्छेदकं वा अथवा अन्यत् अपि अस्ति वा चित्रं दृष्ट्वा
घटनिष्ठत्वमपि अवच्छेदकं भवितुमर्हति
हा समीचीनं हा घटत्वमपि
घटत्वावच्छिन्न प्रतियोगिता
हा समीचीनं घटत्वावच्छिन्न प्रतियोगिता अपि अस्ति समवायसम्बन्धावच्छिन्न प्रतियोगिता अथ तत्र तस्य अवच्छेदकद्वयमस्ति एकमस्ति तत्र घटत्वम् इति धर्मः अन्यः अस्ति समवायः इति सम्बन्धः हा समवायसम्बन्धः इति कृत्वा तस्य तस्मिन् या अवच्छेदकता अस्ति तस्याः नामकरणं सांसर्गिक अवच्छेदकता इति कृतं समीचीनं हा अस्तु इदानीं तत्र
तादृशप्रतियोगिता निरूपिता अनियोगिता अनियोगितावान् अभावः
हा समीचीनं हा इति अस्ति अपि हा तादृशी अनियोगिता अभावे अस्ति अपि एषः अभावः कीदृशः नाम अभावः भूतले अस्ति चेत् केन सम्बन्धेन भवति
स्वरूपसम्बन्धेन भवति
स्वरूपसम्बन्धेन भवति अतः तत्र किं कुर्मः यदि अभावः भूतले अस्ति इति एव वर्णनं खलु वाक्ये अतः भूतले अधिकरणता अस्ति अभावे किमस्ति
अनियोगिता अस्ति
न न अनियोगिता अस्ति किन्तु अभावः भूतले अस्ति इति वर्णयामः अतः तत्र भूतले
अभावे आदेयता अस्ति अत्र
आदेयता अस्ति एषा आदेयता कीदृशी इति नाम तत्र एषः तत्र घटाभावः अनेकेषु स्थलेषु भवितुम् अर्हति अथवा अतः तत्र आदेयता कीदृशी इति प्रश्ने सति
स्वरूपसम्बन्धावच्छिन्न आदेयता
इति भवति अतः एते अंशाः सर्वे चित्रे दर्शिताः सन्ति समीचीनं हा अतः तत्र वयं तत्र समवायसम्बन्धेन घटः भूतले नास्ति
इति
दर्शितवन्तः अस्तु समीचीनं भगिनि धन्यवादः अस्तु हा समीचीनम् अस्तु जयलक्ष्मी भगिनी नमस्कारः अस्तु अग्रे
शोभ
नमस्ते महोदय
नमस्कारः अस्तु इदानीम् अग्रे सरामः तत्र इदानीं तत्र अत्र एव अस्ति तत्र काले विषयतासम्बन्धेन घटः नास्ति इति ज्ञानं काले विषयतासम्बन्धेन घटः नास्ति इति ज्ञानम् अतः तत्र एतत् दृष्ट्वा तत्र किं किं भवति इति तत्र वाक्यमपि अस्ति एकवारं तत्र वाक्यं पठामः तदनन्तरं तत्र अन्य कोऽपि तत्र वदतु तत्र किं किं कस्य परिवर्तनं भवति इति अतः तत्र कः कर्तुम् इच्छति तत्र आरम्भे राजी भगिनी कर्तुम् इच्छति वा अथवा नरसिंहमहोदय
किं महोदय
तत्र इदानीं तत्र एतत् चित्रं दृष्ट्वा एतत् चित्रं तु तत्र घटः समवायसम्बन्धेन भूतले नास्ति इति प्रदर्शयति किन्तु इदानीं तत्र काले अत्र अस्ति खलु काले विषयतासम्बन्धेन घटो नास्ति इति ज्ञानं हा एतत् एतावत् पठित्वा तदनन्तरं तत्र चित्रं दृष्ट्वा किञ्चित् वर्णितुं शक्नोति वा भवान्?
कालिकसम्बन्ध अवच्छिन्न पटत्व अवच्छिन्न
महोदय काले विषयतसम्बन्धेन
काले विषयतसम्बन्धेन पटो नास्ति इति
ज्ञाने
समवाय
सम्यक्तया दृश्यते वा महोदय अथवा तत्र एतत् सर्वं पुस्तके एव अस्ति पेज् 48
काले विषयतसम्बन्धेन पटो नास्ति इति ज्ञाने भासमान
अभावम् आदाय
एतत् विषयतासम्बन्ध अवच्छिन्न घटत्व
अवच्छिन्न
पट घटत्व अवच्छिन्न प्रतियोगिता निरूपक अभाव निष्ठ स्वरूपसम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरण तावत् कालः इति संक्षेपेण वक्तुं शक्नुमः एवमेव वायु समवायेन
तावदेव पर्याप्तं महोदय इदानीं केवलं वदतु तर्हि तत्र अस्मिन् चित्रे कस्य परिवर्तनं करणीयम् इति कुत्र किं किं स्थापनीयम् इति किञ्चित् वदति वा तर्हि पूर्वं तत्र घटः भूतले समवायसम्बन्धेन नास्ति इति आसीत् इदानीं काले सम्बन्धेन घटः नास्ति इति
समवाय इत्यत्र विषयता इति लेखनीयं समवाय इत्यत्र विषयता
अस्तु एतत् त्यजामः अत्र विषयता इति अस्तु समीचीनम् अपि
घटत्व पटत्व
अत्र घटः एव अस्ति महोदय घटः एव अथवा पटः नास्ति घटः एव अस्ति
अत्र स्वरूप विषयतावच्छिन्न संसर्गिता अवच्छेदकता अवच्छेद्यता प्रतियोगिता अत्र भूतलविषये अत्र किम् अस्ति महोदय
कालः
भूतलस्य स्थाने तत्र काल आगच्छति भूतलस्थाने
कालः इति आगच्छति अस्तु कालः इति आगच्छति अस्तु तत्र प्रायः तत्र पूर्वं वयं दृष्टवन्तः तत्र कालिकसम्बन्धस्य विषये एतावत् वयं किमपि न उक्तवन्तः अतः अत्रैव पर्याप्तमिति मन्ये किन्तु अग्रे यदि वयं अग्रे सरामः तत्र पश्यामः तत्र किं भवति इति किन्तु अस्तु स्वरूपसम्बन्धेन इति तत्र सर्वत्र वयम् उक्तवन्तः तत्र स्वरूपसम्बन्धेन अभावः सर्वत्र भवति इति अतः तत्र स्वरूपसम्बन्धावच्छिन्न एव इति भवेत् इति मन्ये काले नो चेत् अत्र कालिकसम्बन्धः इति प्रायशः तदपि तत्र स्थापितुं शक्नुमः इति मन्ये अतः तत्र किञ्चित् किन्तु कालिकसम्बन्धस्य विषयः वयं न पठितवन्तः अतः इदानीं तद् मास्तु अस्तु समीचीनं महोदय अपि तत्र विषयतासम्बन्धावच्छिन्न इति एव तत्र अत्र स्थापितम् अपि तत्र वाक्ये स्वरूपसम्बन्धावच्छिन्न आदेयता निरूपित अधिकरणतावान् कालः इति एव उक्तम् अतः स्वरूपसम्बन्ध एव स्वीकृतम् अस्ति
धन्यवादः
समीचीनं महोदय अस्तु इदानीं तत्र एतादृश अभ्यासः तत्र वयं गृहपाठेन कुर्वन्तः स्मः समीचीनमेव इदानीं तत्र अग्रे सरामः तत्र विषयद्वयम् अस्ति अतः तत्र तस्मिन् विषये करपत्रम् अस्माभिः पठनीयम् अस्ति तद् किन्तु एकवारं तत्र एतादृशचित्रं कर्तुं इदानीं जानीमः, किन्तु किमर्थं तत्र लेखकः एतस्य विषयं तत्र प्रतिपादयन् अस्ति इति न उक्तवान्? अग्रे वदति किमर्थं तत्र अवच्छिन्नता अवच्छेद्यता एतत् सर्वं वदति इति. अस्तु, अतः तत्र अग्रेसरं, किन्तु तस्मात् प्राक् कोऽपि प्रश्नः अस्ति वा अस्मिन् विषये? तत्र सर्वं स्पष्टम् अस्ति वा कथं तत्र ज्ञानस्य चित्रं वयं कुर्मः इति? अभावः
महोदय, कश्चन प्रश्नः.
अस्तु भगिनि,
इदानीं महोदय इदानीम् उक्तं खलु विषयसम्बन्धता अवच्छिन्न, खटत्व अवच्छिन्न, प्रतियोगिता निरूपित, अभावनिष्ठ, स्वरूपसम्बन्ध अवच्छिन्न, अधेयता निरूपित, अधिकरणतावान् कालः इति इदानीं यत् येन परिष्करणं कृतं तया अवगन्तुं शक्नुमः खलु. किन्तु यत् चित्रम् आसीत् संसर्गिक अवचेतकता समवाय इत्यत्वेन एकं चित्रम् आसीत् खलु, तत् न भवति इति काले विषयतासम्बन्धकटः नास्ति इति अपि अत्र उक्तं खलु पेराग्राफ् अवच्छेदक अवच्छेद्य प्रथमतया काले विषयतासम्बन्धेन कटः नास्ति इति ज्ञाने भासमान अभाव आदाय इति उक्तं खलु. तत्र कथं वयं जानीमः, यतोहि यत् अस्ति न चेत् यत् नास्ति इति ज्ञातुं शक्नुमः, किन्तु समवायसम्बन्धेन नास्ति इति इदानीं विषयता इति वदनेन कथं ज्ञातुं शक्नुमः? तत्तु न भवति खलु, समवायः अपि नास्ति, संयोगः अपि नास्ति खलु.
यत् यः कोऽपि सम्बन्धः तत्र न, यः कोऽपि सम्बन्धः भवेत् तत्र सम्बन्धं न स्थापितुं शक्नुमश्चेत् एतादृशस्य चित्रस्य लेखनं भवति. नो चेत् यदि तत्र स्थापितुं शक्नुमः, नाम तत्र काले कालिकसम्बन्धेन घटः अस्ति इति वाक्यं, तद् ज्ञानं तु सरलम् अस्ति खलु. हा, किन्तु सरलज्ञानं नास्ति, नाम तत्र तेन सम्बन्धेन एव भवितुम् अर्हति इति वक्तुम् इच्छामः. तत्र घटः कालिकसम्बन्धेन काले अस्ति, तस्य चित्रस्य चित्रं वयं लेखितुं शक्नुमः, किन्तु येन न अवगम्यते घटः अन्येन सम्बन्धेन काले भवितुम् अर्हति न वा इति खलु. केवलं तत्र कालिकसम्बन्धेन भवति इति एव ज्ञानमस्ति, तद् ज्ञानं सीमितमस्ति खलु. अन्यैः सम्बन्धैः घटः काले भवितुम् अर्हति न वा इति तस्य ज्ञानं तेन चित्रेण न प्रदर्शितम् खलु. अतः एकमेकं सम्बन्धं स्वीकृत्य यदि वयं पृच्छामः अस्तु भवतीं भवितुम् अर्हति न वा इति, न भवितुम् अर्हति इति यदि वदामः अस्तु, तद् ज्ञानं तत् पुनः सीमितज्ञानम्. इदानीं तत्र काले विषयतासम्बन्धेन घटः अस्ति न वा नास्ति इति उत्तरं, तदेव सम्यक् इति चिन्तयामश्चेत् तत् कथं प्रदर्शयामः इति विषयः.
अस्तु, इदानीं यत् चित्रम् आसीत् पुस्तके, यत् चित्रम् आसीत् तेन चित्रेण किं ज्ञातुं शक्नुमः? द मेन् मीनिङ्ग्, मुख्यार्थः किम् अस्ति?
हा, समीचीनं भगिनि. हा, तत्र नाम भवती पृच्छति तस्य प्रयोजनं किम् इति वा? अस्तु, तस्मिन्नेव विषये तत्र इदानीं किञ्चिदग्रे एव तत्र एतस्य एतं पुटम् अपि अग्रिमे पुटं तत्र तत्र पाठस्य तत्र पेज् 48 अपि पेज् 49 तद् किञ्चित् पठामः. तदनन्तरं स्वरूपमहोदयस्य करपत्रम् अस्मिन् विषये एव तत्र नाम किमर्थम् एतादृशवाक्यस्य तत्र
आवश्यकता
चर्चा इति भवति, किन्तु अत्र एव लेखकः एकं कारणम् अपि उक्तवान् अस्ति. तत्र नाम अवच्छेदकता इति किमर्थम् इति तस्मिन् विषये लेखकः उक्तवान् अस्ति. तद् दृष्ट्वा तदनन्तरं तत्र करपत्रं पठामः भगिनि. किन्तु सम्यक् एव नाम किमर्थं वयं जानीमः एव किमर्थम् एतद् वदामः सत्यम् अतः तत्र अतः एव अत्र यद् एतद् यद् अस्ति तस्य एतत् सर्वम् अहं तत्र गृहपाठरूपेण कुर्मः इति चिन्तितवान्. अतः अत्र अग्रे सरामः. समीचीनं वा? तदनन्तरं तत्र प्रश्नस्य उत्तरं आयाति. अन्य कोऽपि प्रश्नः?
महोदय, मम एकः प्रश्नः अस्ति.
वदतु भगिनि.
अत्र भूतले समवायेन घटः नास्ति इति अत्र दत्तमस्ति, परन्तु वयं सम्बन्धाः चतुर्विधाः सन्ति किल, सो अन्यसन्दर्भे अन्यसम्बन्धेनापि नास्ति इति वक्तुं शक्यते किल? घटः कालिकसम्बन्धेन भूतले नास्ति, सम्बन्धेन नास्ति इति चतुर्विधं प्रत्येकं चतुर्विधं कल्पयितुं शक्यते किल?
किन्तु प्रत्येकस्य भिन्नचित्रं भवति. नाम तत्र यदि तत्र कालिकसम्बन्धेन वक्तुं नास्ति इति वदामश्चेत् तत्र कालिकसम्बन्धः इति वक्तव्यं भवति. अत्र 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 यः सम्बन्धः भवति सः एव तत्र अवच्छेदकः भवति. नाम तत्र तेन सम्बन्धेन घटः भूतले नास्ति इति भवति. तत्र स्थापयामः केवलं तस्य एव ज्ञानं भवति, अन्यस्य सम्बन्धस्य ज्ञानं न भवति अनेन चित्रेण. नाम तत्र ज्ञानं सर्वदा सीमितमस्ति. एतद् अस्ति इत्युक्ते अन्यत् नास्ति इति न जानीमः खलु. केवलम् इदानीं यदि अहं वदामि तत्र पुस्तकम् उत्पीठिकायाम् अस्ति इति वदामि चेत् पुस्तिका पुस्तकम् अस्ति इति एव ज्ञानं भवति. तत्र लेखनी अस्ति न वा इति तत्तु न जानीमः खलु.
सत्यं.
हा, अतः तत्र यत् सम्बन्धः यं सम्बन्धम् अत्र स्थापयामः तस्य एव ज्ञानम्. तत्र संयोगः इति अस्ति चेत् तस्य चित्रं तु सरलं, यतोहि तेन सम्बन्धेन भवितुम् अर्हति, भवति अपि यतः भूतले संयोगसम्बन्धेन भवितुम् अर्हति.
इदानीम् उदाहरणेन घटः तादात्म्यसम्बन्धेन स्वस्मिन् न भवति इत्यपि वक्तुं शक्यते किल?
किं किं किं
घटः समवायसम्बन्धेन स्वस्मिन् नास्ति इति वक्तुं शक्यते.
तस्मिन् सन्दर्भे एतादृशचित्रं भवति. तादात्म्यसम्बन्धेन घटः स्वस्मिन् अस्ति इति तत्तु लघुचित्रं भवति, यतोहि तत्र भवति अभावस्य प्रश्नः तत्र न उदेति. अभावः तत्र न भवति, केवलं तत्र घटः अन्यघटः आदेयता अधिकरणता एतत् सर्वं भवति खलु. तत्र एकवारं तदपि चित्रमपि लिखामः. तत्र घटः स्वस्मिन् समवाय तत्र तादात्म्यसम्बन्धेन भवति इति तत्र अतः तत्र घटः अस्ति, अन्यः अपि सः एव घटः, किन्तु पुनरेकवारं स्थापयामः. अस्मिन् एषः घटः अधिकरणम् इति चिन्तयामः, एषः आदेयः इति चिन्तयामः. अतः अस्मिन् किम् अस्ति? अधिकरणता अस्ति. अस्मिन् आदेयता अस्ति. एषा आदेयता केन अवच्छिन्ना? तत्र घटत्वावच्छिन्ना अपि भवितुमर्हति, अपि सम्बन्धः
सम्बन्धेन अवच्छिन्ना अपि भवितुम्.
तत्र नाम एतत् तत्र प्रतियोगिता यदस्ति तद् आदेयता मध्ये भवति. तत्र एतत् सर्वं तत्र घटत्वावच्छिन्ना इति एतत् सर्वम् आदेयतायाः उपरि भवति. अपि एतदपि आदेयतायाः उपरि भवति, किन्तु समूह इति स्थाने तादात्म्यम् इति भवति.
अस्तु,
अतः तत्र लघुचित्रं भवति, एतत् सर्वं नास्ति. अत्र आदेयत, अधिकरणत, घटः घटः. समीचीनं खलु? अस्तु, हा. इदानीं तत्र अत्र विषयद्वयमस्ति इति उक्तवान्. तत्र एकः विषयः अस्ति यं तत्र जयलक्ष्मी भगिनी पृष्टवती, नाम एतादृशवाक्यं किमर्थं वयं कुर्मः. अन्यः विषयः अस्ति तत्र एतावत् तत्र अभावः यः आसीत्, सः अभावः कीदृशः अभावः आसीत्, एतावत् चर्चा या जाता तस्याम् अभावः कीदृशः अभावः. तत्र अभावः, अभावस्य चतुर्विधः अस्ति इति जानीमः खलु. अतः एतावत् तत्र काले घटः नास्ति अपि तत्र विषयतसम्बन्धेन, अपि तत्र समवायसम्बन्धेन घटः भूतले नास्ति इति ज्ञाने एतादृश अभावः कीदृशः अभावः?
अत्यन्त अभावः.
अत्यन्त अभावः,
हा, अत्यन्त अभावः. किन्तु अन्योन्य अभावः तत्र तत्र किं भवति इति अपि विषयः. तत्र तादात्म्यसम्बन्धः एव भवति प्रतियोगितायाः अवच्छेदकः इति अस्ति. हा, तत्र तस्मिन् विषये किञ्चित् वक्तव्यमस्ति. अतः तत्र तस्मिन् विषये अग्रे वदामः इति चिन्तनम्. अतः तत्र तादात्म्यसम्बन्धः कथं भवति इति अग्रे वदामः. एषः सम्बन्धः एव तत्र अवच्छेदकः इति अत्र स्वीकुर्मः, तदनन्तरम् अग्रे सरामः. अतः तत्र किन्तु एकवारम् एतत् सर्वं पठामः, तदनन्तरं तत्र अस्य परिशीलनं करपत्रस्य पठनानन्तरं कुर्मः. किन्तु एतत् एकवारं पठामः. तर्हि तत्र धनश्री भगिनी किञ्चित् पठति वा तत्र? एवं घटः.
आं महोदय. एवं घटः पटो न इत्यत्रापि तादात्म्यसम्बन्धः भवति प्रतियोगिता अवच्छेदकः, तथा च घटत्वावच्छिन्नता अघटत्वावच्छिन्न तादात्म्य अवच्छिन्न प्रतियोगिता प्रतियोगिता का भावः. यः भेदः तद्वान् पटः इति प्रतियोगितायाः तादात्म्य अवच्छिन्नत्व सिद्धिः. अत्र अन्योन्यभावस्य विवरणमस्ति. घटः पट एवं घटः पटो न इत्यत्रापि तादात्म्यसम्बन्धः भवति प्रतियोगिता अवच्छेदकः.
हा, नाम तत्र प्रतियोगिता तस्मिन् सन्दर्भे घटः पटः न इति स्थाने तत्र घटस्य अन्योन्य अभावः पटे भवति इति कृत्वा तत्र प्रतियोगिता कीदृशी इत्युक्ते तत्र घटत्वम् इति एकम् अवच्छेदकं भवति, अन्यः तत्र भवति तत्र तादात्म्यसम्बन्धः इति. तत्र सः एव अवच्छेदकः भवति इति. किन्तु तत्र चित्रं कथं भवति इति अग्रे पश्यामः, इदानीं मास्तु. किन्तु प्रतियोगितायाः तादात्म्य अवच्छिन्नता त्वम् अस्ति इति तावदेव वदामः. अस्तु, इदानीं तत्र एतत् सर्वं तत्र किमर्थम् अवच्छेद्यता इति एतत् सर्वं किमर्थं पठन्तः स्मः इति विषये अग्रे भवति तत्र. अस्तु, अन्य कोऽपि तत्र शुभदा भगिनी, नमस्कारः. शुभा भगिनी किञ्चित् अग्रे पठति वा तत्र प्रकृते इति, तत्र पेज् 48.
आम् महोदय. प्रकृते आधेयत्वस्थले समवायादिसम्बन्धैः घटः कपालादिषु इव शब्दे अपि शब्दः अपि समवायेन आकाशे कालिकेन काले विषयतासम्बन्धेन सविषयकप्रत्यये वर्तते इति बहुविधा आधेयताः शब्दे वर्तन्ते. तासु या समवाय
तावत्पर्यन्तं तत्र तत्र नाम अस्माकं मूलविषयः तत्र वयं तत्र तर्कसङ्ग्रहे कुत्र स्मः वयं लक्षणभागे खलु वयं तत्र नामकरणं तत्र तत् कृतवन्तः तत्र पदार्थाः के इति सर्वम् उक्तवन्तः खलु इदानीं प्रतीकस्य पदार्थस्य लक्षणं किम् इति ज्ञातुम् उत्सुकः स्मः खलु नाम खलु
अत्र पदार्थस्य लक्षणम् इत्युक्ते
लक्षणं कृतवन्तः खलु जलस्य लक्षणं सर्वं कृतवन्तः इदानीं तत्र किं कुर्वन्तः स्मः तत्र प्रकृते नाम अस्माकं मूलविषयः कः इत्युक्ते तत्र आकाशस्य लक्षणं जलं पृथ्वी तेजः वायुः एतत् सर्वं वयं तस्य लक्षणं किम् इति ज्ञातवन्तः किन्तु शब्दः तत्र आकाशम् इति विषये वयम् एतत् पठितवन्तः तत्र वाक्यमस्ति तत्र आकाशस्य लक्षणवाक्यम् एकवारं पठतु
आकाशस्य लक्षणम् इति वा
हा अत्र स्क्रीन् मध्ये अस्ति नो चेत् तत्र
एकक्षणं महोदय
हा पेज् 45 मध्ये अस्ति भगिनि पुस्तके
45 अस्तु
हा
उपरि वा
हा उपरि
शब्दगुणक इति तत्र
शब्दगुणक
अस्तु क्रमप्राप्तम् आकाशं निरूपयति अस्तु क्रमप्राप्तम् आकाशं निरूपयति शब्दगुणकमाकाशं शब्दगुणकम् इति आकाशं तत् च एकं विभु नित्यः च अस्ति सर्वव्यापी अपि च नित्यमस्ति
हा नित्यमस्ति
शब्दगुणक हा इत्युक्ते तत्र शब्दः गुणः यस्य तत् शब्दगुणकम् इति अतः आकाशम् आकाशः शब्दगुणकः अस्ति इति दत्तं तत्र
तस्य गुणः आकाशस्य
शब्दः गुणः यस्य
आकाशस्य
गुणः शब्दः
शब्दः अस्ति अतः तत्र गुणः कुत्र वर्तते गुणः द्रव्ये एव वर्तते खलु
सत्यं
द्रव्यम् अत्र शब्दः इति गुणः अस्ति तस्य आश्रयः
आकाशः
इदानीं तत्र लक्षणवाक्ये शब्दगुणकम् आकाशम् इति उक्तं चेत् तत्र शब्दः अन्यत्र जले भवितुम् अर्हति वा
कुत्रापि न भवितुम् अर्हति एकस्य गुणं भवति चेत् तत्र लक्षणं लक्ष्ये एव भवति भवेत् इति कृत्वा
शब्दः आकाश
अन्यत्र सर्वत्र असम्भवदोषः इति वक्तुं शक्नुमः महोदय
नाम तत्र न समीचीनं भगिनि तस्य सम्भवः एव नास्ति हा असम्भवदोषः भवति अन्येषु स्थलेषु समीचीनं भगिनि हा अतः तत्र शब्दगुणकम् आकाशं नाम शब्दः आकाशे वर्तते गुणः अस्ति अतः केन सम्बन्धेन शब्दः आकाशे वर्तते
तत्र समवायसम्बन्धेन वर्तते
गुणः द्रव्ये समवायसम्बन्धेन भवति अतः तत्र शब्दे तत्र आकाशम् अधिकरणम् इत्युक्ते शब्दः कः भवति आदेयः भवति शब्दः आदेयः भवति शब्दे आदेयता भवति अतः तत्र यथा तस्मिन्नेव पुटे अधोभागे घटे अनेकाः आदेयताः आसन् खलु हा तथैव अत्रापि अस्मिन् पुटे पुनः तत्र पेज् 49
तत्र अनेकाः आदेयताः आदेयतानां विषयः इति
आदेयताः सन्ति नाम शब्दे किं किम् अस्ति
अस्तु समवायेन अत्र प्रकृते आधेयस्थले आधेयत्वस्थले समवाय आदिसम्बन्धैः घटः कपालादिषु इव शब्दः अपि समवायेन आकाशे कालिकेन काले विषयतासम्बन्धेन स्वविषयकप्रत्यये स्वविषयकप्रत्यये इति किम् इति न जानामि
अस्तु अस्तु वदामः
वर्तते वर्तते इति बहुविध आधेयताः शब्दे वर्तन्ते इत्युक्ते तत्र शब्दः यथा पूर्वोक्तं पूर्वं यथा दृष्टवन्तः घटः कालादिषु अनेकाः अनेकान् आधेयतान् स्वीकृत्य भवति इति तथा एव शब्दः अपि
घटे अनेकाः आधेयताः
सन्ति
आसन् आसन्
आसन् आसन्
तथैव इदानीं तत्र शब्दे
शब्दः अपि समवायने आकाशे इत्युक्ते तत्र समवायसम्बन्धेन कालिकसम्बन्धेन काले विषयतासम्बन्धेन स्वविषय स्वविषयकप्रत्यये वर्तते
आकाशे केन सम्बन्धेन भवति
समवायसम्बन्धेन
काले अपि भवितुम् अर्हति काले कालः तत्र कालः आकाशः कालः इति अस्ति हा अपि काले अपि भवति अपि तदनन्तरम् अस्ति विषयतासम्बन्धेन स्वविषय प्रत्यय प्रत्यय नाम प्रतीतिः नाम ज्ञानं प्रत्यय नाम ज्ञानं स्वविषयकज्ञानं नाम शब्द इति विषयः अस्ति यस्य ज्ञानस्य विषयः शब्दः तद्भवति तत्र स्वविषयकज्ञानं शब्दविषयकज्ञानं तस्मिन् ज्ञाने शब्दः विषयतासम्बन्धेन भवति
आम्
तत्र
ज्ञाने विषयतासम्बन्धेन भवति आम्
तत्र पुनः तत्र विषयितासम्बन्धेन भवेत् खलु तत्र प्रायशः तत्र दोषः एव वर्तते इति मन्ये
ज्ञान ज्ञाने विषयितासम्बन्धेन भवति इति दृष्टवन्तः पूर्वम्
आमामां तत्र विषयः विषयितासम्बन्धेन ज्ञाने भवति
ज्ञाने विषयितासम्बन्धेन भवति
ज्ञानं विषयतासम्बन्धेन विषये भवति इति मन्ये हा किन्तु तत्र अतः तत्र ज्ञानमपि भवितुम् अर्हति अतः तत्र तिस्रः आदेयताः शब्दे सन्ति खलु
सत्यं
हा अतः तत्र तासां परस्परभेदं कथं सम्पादयामः इति अग्रे तत्र अग्रिम वाक्यं पठतु तर्हि तासु
तासु या समवायसम्बन्ध अवच्छिन्न आधेयता तन्निरूपिता अधिकरणता वत्त्वम् एव प्रकृते लक्षणम् इति बोधनाय गुणपदम् उपात्तम्
नाम अत्र लक्षणवाक्ये किमर्थं गुण इति स्थापितम् इति इदानीं तत्र समाधानं ददाति तत्र गुणम् अस्ति इति यदि वदामः किं भवति शब्दः गुणः इति वदामश्चेत् तत्र आकाशे वर्तते केन सम्बन्धेन तत्र अतः तत्र आकाशे वर्तते शब्दे आदेयता अस्ति कीदृशी आदेयता अस्ति समवायसम्बन्ध अवच्छिन्न
आधेयता
कुत्र अस्ति
आधेयता आकाशे
न समवायसम्बन्ध अवच्छिन्न आधेयता कुत्र अस्ति
समवायसम्बन्ध अवच्छिन्न आधेयता अधिकरणे
आधेयता कुत्र भवति
आधेयता
तत्र अस्तु अस्तु भगिनि एतत् कुर्मः शब्दः आकाशे वर्तते वा अथवा आकाशः शब्दे वर्तते वा
शब्दः आकाशे वर्तते
अस्तु अधिकरणं किम्
आकाशः एव
आकाशः आकाशः अधिकरणम् इत्युक्ते तत् तस्मिन् किम् अस्ति
अधिकरणता अस्ति शब्दे आधेयता अस्ति
शब्दे आधेयता अस्ति खलु
ओ तत् पृष्टवान् महोदय आधेयता शब्दे वर्तते
अस्माकं मूलविषये तत्र आधेयताः तिस्रः शब्दे एव सन्ति खलु किन्तु एषा आधेयता नाम तत्र या आधेयता अत्र अस्ति खलु तत्र शब्दः आकाशे वर्तते इति यदि वदामः तस्मिन् सन्दर्भे या आधेयता शब्दः आकाशे वर्तते अतः तत्र आकाशनिष्ठ अधिकरणता निरूपित आदेयता आश्रयः शब्दः इति भवति खलु अथवा शब्दनिष्ठ आदेयता इति सा आदेयता कीदृशी इत्युक्ते तस्याः अवच्छेदकता अवच्छेद्यकं किम् इति प्रश्ने किं वदामः वयं
तस्य अवच्छेदकम्
अवच्छेदकः कः इत्युक्ते किं वदामः
शब्दत्वम् इति भवति वा
एकं समीचीनम्
शब्दत्वम् इति एकम् अन्यत् समवायसम्बन्धः
हा तदेव अस्ति खलु समवायसम्बन्धावच्छिन्न आधेयत खलु
आम् आं महोदय
हा अतः तत्र ये अपि तन्निरूपित नाम आधेयतया निरूपित
अधिकरणतावत्त्वम् एव प्रकृते लक्षणम् इति बोधनाय गुणपदम् उपात्तम्
नाम स्थापितं तत्र प्रयुक्तं गुणपदं तत्र प्रयुक्तं तत्र तस्य उपयोगं कृतम् अत्र गुणपदम् इति अस्ति खलु शब्दगुणकम् आकाशम् इति तत्र अस्ति तत्र गुणपदं प्रविष्टमस्ति किमर्थम् इत्युक्ते एतद् बोधनाय तत्र आदेयता समवायसम्बन्धावच्छिन्ना अस्ति इति बोधयितुं तत्र प्रविष्टम् अस्ति इति अतत्र अन्या तत्र आदेयता या अस्ति सा भिन्ना अस्ति सा समवायसम्बन्धावच्छिन्ना नास्ति कालिकासम्बन्धावच्छिन्ना भवेत् अथवा विषयितसम्बन्धावच्छिन्ना भवेत् किन्तु एषा आदेयता समवायसम्बन्धावच्छिन्ना अस्ति इति अस्तु इदानीं तत्र अन्य कोऽपि अस्मिन् विषये वदतु तर्हि तत्र अग्रे तत्र अस्तु तत्र हा अस्तु जयलक्ष्मी भगिनी भवती एव तत्र किञ्चित् वदति वा तत्र अधिकरणतावत्त्वम् इति किमर्थम् उक्तम् अत्र
तत्र तत्तु प्रकृतार्थे एव आगच्छति इति तेन कारणेन अधिकरणम् अधिकरणतावत्त्वम् एव प्रकृते लक्षणम् इति बोधनाय
नाम किं किमस्ति
द्विवारं तल्प्रत्ययस्य योजनेन मूले प्रकृतार्थे एव आगच्छति इति एकवारं
तदर्थं नाम तत्र गन्धवती पृथ्वी इति वदामः नो अथवा गन्धवत्वं पृथिव्याः लक्षणम् इति वदामः पूर्वं दृष्टवन्तः खलु पठितवन्तः गन्धवत्वं पृथिव्याः लक्षणम् इति तत्र वत्वम् इति वदनेन किं भवति तत्र
गन्धः इति एव अर्थः गन्धः इति एव अर्थः भवति
इति एव अर्थः अपि तत्र गन्धः इति लक्षणं तद् भूतले तत्र पृथिव्याम् अस्ति इति तत्र स्पष्टता भवति नाम गन्धवत्वं नाम गन्धवत् पृथिवी गन्धवत्वं पृथिव्याम् अस्ति अतः लक्षणं लक्ष्ये अस्ति
खलु
अतः एव तत्र अधिकरणतावत्त्वं प्रकृते लक्षणं नाम तत्र समयसम्बन्धावच्छिन्न आदेयता या शब्दे अस्ति तया निरूपित अधिकरणतावत्त्वम् एव आकाशस्य लक्षणं नाम समवायसम्बन्धः तेन किं भवति समवायसम्बन्धः समवायसम्बन्धेन शब्दः
आकाशे वर्तते
एषः शब्दः एव आकाशस्य लक्षणम् एषः शब्दः गुणः अस्ति तेन गुणेन गुणस्य आश्रयः एव आकाशः अतः तत्र अधिकरणता आकाशः अधिकरणं तस्मिन् अधिकरणता अस्ति अधिकरणतावत्त्वम् अपि अस्ति अत्र अधिकरणतावत्त्वम् इति तत्र आकाशस्य लक्षणम् इति एतद्बोधनाय गुणपदम् उपार्थम् अस्तु अग्रे अपि किञ्चित् पठतु भगिनि
महोदय कश्चन प्रश्नः अत्र गुणकं किमर्थम् उक्तम् इत्यस्य प्रतिपादनमस्ति खलु समवायसम्बन्धेन आकाशे शब्दः अस्ति इति उक्तं पूर्वमपि घटे समवायसम्बन्धः आसीत् खलु इदानीं कपालः कपालस्य विषये वदामः चेत् तत्रापि समवायसम्बन्धः आसीत् खलु, किन्तु तत्र गुणकम् इति पदं वयम् अस्माभिः न प्रयुक्तं, नो चेत् अत्र न्यायिकाः न प्रयुक्तं खलु गुणकम्।
हा, तत्र समवायसम्बन्धः कुत्र कुत्र भवति? समवायसम्बन्धः गुणद्रव्ययोः मध्ये, अवयव अवयविनोः मध्ये,
सत्यम्
इति। अतः तत्र केवलं गुणः इति एव नास्ति, अन्येषु सन्दर्भेषु अपि भवति
भवति
गुणः, गुणः एव केवलं तत्र गुणेन तत्र समवायसम्बन्धः अपि तस्य ज्ञानमपि उदेति। किन्तु समवाय केवलं समवायसम्बन्धः इति उक्तं चेत् गुणः अस्ति इति ज्ञानं न भवति खलु, यथा अतः तत्र गुणम् इति एव तत्र स्थापनीयम् अस्ति।
अस्तु, इत्युक्ते समवायसम्बन्धेन यत् अस्ति तत् गुणः एव इति ज्ञानार्थम्
अस्ति इति कृत्वा समवायसम्बन्धावच्छिन्न आदेयता भवति इति।
अस्तु,
तत्र केवलं समवायसम्बन्ध अवच्छिन्न इति कृत्वा गुणः इति न भवति खलु।
आम् आम्,
किन्तु तत्र अस्तु भगिनि अग्रे।
अग्रे गुणगुणिनोः समवायस्य प्राक् व्यवस्थापनेन गुणपदेन तयोः यः समवायसम्बन्धः तस्य एव उपस्थित्या तत् सम्बन्ध अवच्छिन्न आधेयता अधेयत्वलाभः इति। अत्र गुणगुणिनोः मध्ये समवायसम्बन्धः अस्ति, तादृशसमवायस्य प्राक् व्यवस्थापनेन
पूर्वमपि तादृश तत्र गुणगुणिनोः समवायसम्बन्धः अस्ति इति वयं प्रागेव स्थापितवन्तः खलु।
हा, सत्यम्। इदानीं गुणपदेन तयोः यः समवायसम्बन्धः तस्य एव उपस्थिता तत् सम्बन्ध अवच्छिन्न अधेयता अधेयत्वलाभः। यतोहि यद् तदेव महोदयेन इदानीम् उक्तं, गुणमिति पदेन तस्य समवायसम्बन्धः अपि प्रदर्शयति, तस्य उपस्थित्या एव तस्य सम्बन्धः अपि प्रदर्शयति, तेन तत् अवच्छेदकः इति अपि ज्ञानं भवति। इत्युक्ते समवायसम्बन्धः इति अवच्छेदकः भवति, तत् अवधेयतारूपेण शब्दे अस्ति इति लाभः इति ज्ञानं ज्ञायते इति ज्ञानं लभ्यते इति अत्र उक्तम्।
समीचीनं। हा, अतः तत्र शब्दः तत्र गुणमिति तत्र अत्र एकं कारणम् उक्तं, तेन तत्र आदेयता कीदृशी केन अवच्छिन्ना इति उक्तम्। अन्यत् कारणमपि पूर्वमुक्तं नाम तत्र मीमांसकाः तत्र गुणं शब्दः गुणम् इति न स्वीकुर्वन्ति, किन्तु नैयायिकाः स्वीकुर्वन्ति इति कृत्वा तस्य प्रदर्शनार्थमपि तत्र गुणकम् इति स्थापितमिति एकं कारणम् उक्तं पूर्वम्। अस्तु, अतः तत्र गुणम् इति किमर्थं तदनन्तरम् इत्थमेव
इत्थमेव च ज्ञानाधिकरणात्मा इत्यत्रापि अधिकरण क्षम्यता ज्ञानाधिकरणमात्मा इत्यत्रापि अधिकरणपदनिवेशप्रयोजनं वक्ष्यते, तत्तु अग्रे भवति इति उक्तमत्र। ज्ञान अधिकरणम् आत्मा इत्यत्रापि यत्र आत्मनः विषयः भवति तत्रापि एतादृशम् अधिकरणपदम् अधिकरणवत्त्वम् इति भवति इति चिन्तयामि, तादृशप्रयोगः अग्रे भवति इति अत्र उक्तम्।
हा, नाम यथा तत्र अत्र वयं गुणपदं तत्र स्थापितवन्तः किमर्थम् इति उक्तवन्तः, तथैव तत्र अत्र आकाशस्य लक्षणवाक्ये गुणपदम् अस्ति, अग्रे गत्वा आत्मनः लक्षणवाक्ये अधिकरणम् इति भवति, ज्ञानस्य अधिकरणम् आत्मा इति अग्रे आत्मनः लक्षणवाक्यं भवति, तत्रापि अधिकरणपदं किमर्थं निवेशितम् इति तस्मिन् तस्य प्रयोजनं किम् इति अपि अग्रे
अग्रे उच्यते
उच्यते अग्रे उच्यते। हा, अस्तु अग्रे।
लक्षणवाक्येन आकाशे ज्ञाते तत् किं पृथिव्यादिवत् नाना उत एकमिति जिज्ञासायाः लक्षणजिज्ञासायाम् आह तच्च एकम् इति अयम् आशयः. लक्षणवाक्ये आकाशे ज्ञाते तत् किं पृथिव्यादिवत् नाना उत किम् एकमिति जिज्ञासायाम् आह तच्च एकमिति. लक्षणवाक्ये तच्च एकम् इति उक्तं तत् किमर्थम् इति अत्र कारणं निर्दिशति.
नाम तत्र पृथिवी
आकाशः एकः एव इति अत्र उक्तं.
किमर्थं तत्र एकविधम् इति स्वीकुर्मः इत्युक्ते तत्र सारण्यार्थं यावत्पर्यन्तम् एकः एव आकाशः इति चिन्तनं भवितुम् अर्हति तावत् एकम् इति एव चिन्तयामः. यदि तेन तत्र कोऽपि तत्र समस्या कापि समस्या भवति चेत् तदा अस्माकं चिन्तनं यदस्ति तस्य परिवर्तनं कुर्मः. तत्र पृथिवी एक तत्र पृथिवी एकविधम्
इति नास्ति
इति नास्ति. अतः तत्र पृथिव्यादिस्थले वयं पृथिव्यः इति चिन्तनं, किन्तु आकाशस्य एकम् एकः एव आकाशः इति चिन्तनं कुर्मः. यदि अग्रे गत्वा तत्र चिन्तनेन तत्र समस्या भवति चेत् अस्तु तदा तस्मिन् विषये चर्चयामः. तदा वयं चिन्तयामः अस्तु वयं पूर्वं चिन्तितवन्तः एकः इति एव, किन्तु तद् इदानीम् अवगच्छामः तत् सम्यक् नास्ति इति. अतः सारल्यार्थम् एकम् इति एव चिन्तनं भवेत्
भवति.
अतः समीचीनम् अपि विभु इत्युक्ते सर्वत्र भवति नित्यं नाम
व्याप्ति
तत्र सर्वदा अस्ति, तत्र तस्य उत्पत्तिः नास्ति अपि तत्र
नाशः अपि नास्ति.
अस्तु अतः तत्र एतावत् तत्र शब्दगुणकम् आकाशम् इति तत्र लक्षणवाक्यस्य विषयः आसीत्. अस्मिन् तत्र अवच्छेदकता तत्र घटः समवायसम्बन्धेन भूतले नास्ति इति वाक्यमासीत्. अपि तत्र तादात्म्यसम्बन्धावच्छिन्ना इति तत्र अन्योन्य अभावस्य स्थले तादात्म्यसम्बन्धावच्छिन्ना इति विषयः विषयद्वयस्य इदानीम् अग्रे तत्र करपत्ररूपेण पठनं भवति. अस्तु अतः तत्र करपत्रस्य पठनात् प्राक् कोऽपि प्रश्नः
अस्ति महोदय.
हा वदतु भगिनि.
विमला वदामि.
विमला भगिनि नमस्कारः. भगिनि वदतु भगिनि.
नमस्कारः महोदय. अत्र पृथिवी एका किल नाना अस्ति किम्? आकाशमेक आकाश एकमेव तत्तु सत्यं, परन्तु पृथिवी अपि एका एका अस्ति किल?
पृथिवी इति केवलम् अर्थ इति नास्ति भगिनि. पृथिवी पदार्थाः नाम तत्र यद् किं तत्र पाषाणः अस्ति तद् भिन्नम् अस्ति खलु
गृहीत्वा नाना इति
इति पृथ्वी इति केवलम् अर्थ इति नास्ति भगिनि. पार्थिवपदार्थाः इति
जलमपि तथैव किल? जलं तेज वायु तवपि तदा तथा एव किम्?
आमामाम् अपि तत्र वयं दृष्टवन्तः खलु तत्र पृथिव्याः केवलं पाषाणमिति अपि त्यजतु, पृथिवी इति तत्र एकमस्ति इन्द्रियं खलु.
सालिड् इति स्वीकुर्मः चेत् अर्थः समीचीनं भवति.
सालिड् इति किन्तु तत्र जलस्य अपि भवितुम् अर्हति.
जलस्य न भवति खलु?
अस्तु
पृथ्वी आप्तेजः
अस्तु तत् चिन्तनं कर्तुं शक्नुमः. नाम तत्र वयं तत्र पृथिव्याः अपि त्रैविध्यं दृष्ट तत्र पठितवन्तः खलु भगिनि. नाम एकमस्ति शरीरम्, अन्यत् अस्ति विषयम् अपि. अतः तत्र एकमिति नास्ति तत्रैव लक्षणवाक्ये अस्ति खलु. किन्तु आकाशः तादृशः नास्ति इति. किन्तु पृथ्वी इत्युक्ते केवलम् अर्थ इति नास्ति, पार्थिवपदार्थः नाम सालिड् इति तद् चिन्तनं कर्तुं शक्नुमः. अस्तु अन्य कोऽपि प्रश्नः? अस्तु तर्हि इदानीं तत्र अतः तत्र अग्रे सरामः. तत्र करपत्रम् एतत् करपत्रं तत्र लिङ्क् यदि तत्र रेकार्डिङ्ग् मध्ये प्रेषयामि, किन्तु तत्र भूतले समवायसम्बन्धेन घटो नास्ति इति तत्र न्यायशास्त्र यत् जालपुटे अस्ति तत्र स्वरूपमहोदयस्य तत्र एव एतत् करपत्रमपि अस्ति. किन्तु किञ्चित् पठामः तत्र. अस्तु तर्हि तत्र चन्द्रमती भगिनी पठितुम् इच्छति वा? तत्र दृश्यते वा भगिनि स्क्रीन् मध्ये यदस्ति?
नो चेत् दृश्यते महोदय.
अस्तु.
भूतले समवायसम्बन्धेन खडो नास्ति. प्रतिपक्षी भूतले समवायसम्बन्धेन खडो नास्ति इति कथनप्रसङ्गे प्रश्नः. भूतले खडः अस्ति संयोगसम्बन्धेन न तु समवायसम्बन्धेन. तर्हि अस्य वाक्यस्य अर्थः कः? मूल्यं च किम्? समवायसम्बन्धेन भूतले खडः न कदापि भवति.
अतः किम् उक्तम् अत्र?
भूतले खडः अस्ति तद् समवायसम्बन्धेन नास्ति, किन्तु संयोगसम्बन्धेन अस्तु अस्ति.
अत्र तत्र किमर्थं वयं वदामः भूतले समयसम्बन्धेन घटः नास्ति इति किमर्थं वयं वदामः? तस्य वाक्यस्य अर्थः कः? तेन वाक्यस्य वदनेन को लाभः?
तदेव प्रश्नः.
हा, भूतले घटः कदापि समयसम्बन्धेन न भवति, अतः किमर्थम् एतत् वदामः? प्रतिपक्षी अथवा पूर्वपक्षी इति भवति, नाम ओपोनेण्ट् इति सर्वदा तत्र सम्भाषणेषु सिद्धान्ते यः
तर्कविषये
शास्त्र तस्य तत्र तस्य विषये सः वदति, नाम
वादप्रतिवादः अस्ति वा,
वादप्रतिवादः एषः तत्र अन्यस्मिन् मते अस्ति, प्रतिपक्षी अथवा पूर्व पक्षी. नैयायिकशास्त्रपक्षे अस्ति
सिद्धान्ति उत्तरं ददाति. अवयवावयविनोः समवायसम्बन्धः भवति. खडः अवयवी तस्य अवयवः अस्ति कपालः. तयोः कः सम्बन्धः? समवायः इत्यञ्च खडः समवायसम्बन्धेन कुत्र अस्ति? कपाले भूतले नु नास्ति. भूतले तु नास्ति. तर्हि समवायसम्बन्धवाञ्चिन
कुर्मः. अन्तिमवाक्यं त्यजामः. एतावत् किम् अवगच्छति?
अवयवावयविनोः समवायसम्बन्धः भवति. अवयवावयविनोः सम्बन्धः समवायसम्बन्धः भवति, किन्तु खड अवयवी तस्य अवयवः अस्ति कपालः एव. खडः अवयवः अवयवी तस्य अवयवः कपालः. तयोः कः सम्बन्धः? समवायसम्बन्धः अत्र अस्ति खड कपालयोः
मध्ये.
घटः
समवायसम्बन्धे समवायसम्बन्धेन कपाल
खड कपालयोः अस्ति.
चाट् मध्ये अहं प्रेषितवान्, यदि तत्र सङ्गणके द्रष्टुम् इच्छन्ति चेत् तत्र पुटं कुत्र अस्ति इति चाट् मध्ये लिङ्क् प्रेषितवान् अस्मि, तत्रापि द्रष्टुं शक्यते. अस्तु, इदानीं तत्र धन्यवादः भगिनी. इदानीं तत्र अशोक् महोदय, इदानीं तत्र एतस्य वाक्यस्य किञ्चित् विवरणं करोति वा? तर्हि
अस्तु महोदय, समवय घट समवयसम्बन्धेन घट कपाले अस्ति, वस्तुतः अस्ति, किन्तु भूतले नास्ति. अतः समवयसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न प्रतियोगिता कपाले न भवति, भूतले एव भवति इति अर्थः इति अहं मन्ये.
अभावः भूतले भवति, कुत्र नास्ति? कपाले.
कपाले नास्ति.
नास्ति. हा इदानीं, हा इदानीं किञ्चित् विवृणोतु तर्हि तत्र एतस्य वाक्यस्य अवगमनं सर्वेषां भवेत् इति. हा अतः तत्र किञ्चित् वदतु महोदय, तत्र एतस्य भागस्य अर्थः कः, एतस्य भागस्य अर्थः कः?
घटे प्रतियोगिता अस्ति, घटे अस्ति, अतः घटः घटत्वम् अवच्छिन्नः अस्ति. समवाय संयोगसम्बन्धम् अस्ति, समयोगसम्बन्धेन भूतले अस्ति, अतः समवायसम्बन्धः अवच्छिन्नः न, प्रतियोगितायाः अवच्छिन्नः नास्ति. समवायसम्बन्धः तस्य अवच्छिन्नः, प्रतियोगितायाः अवच्छिन्नः अपि. अतः द्वे अवच्छिन्नौ सन्ति, समवायसम्बन्ध अवच्छिन्न, घटत्व अवच्छिन्न इति.
अतः तत्र नाम भूतले किम् अस्ति? भूतले घटस्य अभावः अस्ति खलु? नाम घटः भूतले नास्ति इति वदामः, अतः घटाभावः भूतले अस्ति इति वदामः. कीदृशः अभावः नाम तत्र घटाभावस्य प्रतियोगी घटः अस्ति, घटे प्रतियोगिता अस्ति, सा प्रतियोगिता कीदृशी अस्ति? सा प्रतियोगिता घटत्वावच्छिन्ना अस्ति, नाम यतोहि घटे अस्ति एषा प्रतियोगिता खलु, यथा भवान् उक्तवान्. हा घटत्वावच्छिन्ना अस्ति प्रतियोगिता, यतोहि प्रतियोगिता घटे अस्ति. अपि अत्र कीदृशः अभावः नाम तत्र तस्य तत्र प्रतियोगिता कीदृशी इति वर्णनं भवेत् नाम वयं वदामः समयसम्बन्धावच्छिन्न प्रतियोगिता कः घटत्वा घटाभावः भूतले अस्ति इति वदामः खलु. नाम समवायसम्बन्धेन घटः भूतले नास्ति इति वर्णनम् एतदेव वयं कृतवन्तः खलु, चित्ररूपेण अपि पठितवन्तः खलु.
आं महोदय.
हा किन्तु एषः अभावः कुत्र नास्ति?
कपाले नास्ति.
कपाले नास्ति, यतोहि कपाले घटः समवायसम्बन्धेन वर्तते अस्ति. हा अतः एषः एतादृश अभावः भूतले अस्ति, किन्तु एषः अभावः कपाले नास्ति. अस्तु इदानीम् अग्रे किञ्चित् वद पठतु महोदय.
प्रतिपक्षी
अस्ति महोदय.
हा प्रश्नः अस्तु, हा वदतु भगिनि.
प्रतियोगिता क इत्युक्ते प्रतियोगिता यस्मिन् अस्ति, यस्य प्रतियोगिता अस्ति तदेव प्रतियोगिता क इति तस्य विवरणं किम्?
प्रतियोगिता कः, सत्यं भगिनि, नाम प्रतियोगिता कः इत्युक्ते तत्र तेन निरूपित तत्र अभावः इति एव भवति तत्र.
अस्तु, परन्तु एतावत् वयम् अभाव इत्युक्ते अनियोगिता इति अस्माभिः उक्तम्, तदा प्रतियोगिता क अभावः
एतादृशप्रयोगः पूर्वमपि आसीत् भगिनि तत्र, नाम तत्र प्रतियोगिता कः इत्युक्ते घटाभावः इति अभावः इति एव तत्र पूर्वम् आसीत् भगिनि, तत्र कुत्र इति अहं न जानामि, किन्तु प्रतियोगिता कः इत्युक्ते अभावः. अस्तु अस्तु अशोक् महोदय अग्रे.
प्रतिपक्षी, अधुना कस्मिंश्चित् भूतले एकः घटः अस्ति, मम पुरतः अस्ति घटः, स च घटः संयोगसम्बन्धेन भूतले शारीरिकरूपेण
शारीरिकरूपेण
शारीरिकरूपेण भूतले घटं पश्यामि घटः भूतले सत्यपि समवायेन तु नास्ति अपि तु संयोगसम्बन्धेन अतः घटः भूतले नास्ति समवायसम्बन्धेन इति तु वाक्यं सत्यं किन्तु निरर्थकम् अस्ति यतोहि घटः भूतले अस्ति एव तर्हि अस्य कथनेन लाभः कः वस्तुतः अभावः नास्ति घटः संयोगसम्बन्धेन भूतले अस्ति एव पश्यामि घटं तर्हि वाक्यं भूतले समवायसम्बन्धेन घटः नास्ति इति तु सत्यं किन्तु घटः तु भूतले अस्ति एव केवलं समवायसम्बन्धेन वक्तुं न शक्यते यतोहि संयोगसम्बन्धेन अस्ति न तु समवायसम्बन्धेन अपि सर्वोपरि अस्ति इदं तथ्यं यत् अभावः नास्ति घटः शारीरिकरूपेण अस्ति भूतले
हा इति अस्तु
अधुना कस्मिंश्चित् भूतले एकः घटः अस्ति
हा इति चिन्तयामः तत्र भूतलम् अस्ति भूतले एकः घटः
अस्ति
चिन्तयामः
मम पुरतः अस्ति घटः एषः घटः एव वा महोदय
एकः घटः अस्ति अस्माकं पुरतः अस्ति घटः
अन्यः घटः नास्ति
अत्र घटः पश्यामि हा वयं पश्यन्तः स्मः तत्र घटः अस्ति भूतले
अस्तु स च घटं संयोगसम्बन्धेन भूतले अस्ति शारीरिकरूपेण भूतले घटं पश्यामि प्रतिपक्षी घटं पश्यति वस्तुतः पश्यति घटः घटः भूतले सत्यपि समवाय
तद् अस्ति तत् सत्यपि तद् अस्ति
समवायेन तु नास्ति संयोगसम्बन्धेन एव अस्ति तत् अङ्गीकृतवान् प्रतिपक्षी अतः घटः भूतले नास्ति भूतले अस्ति भूतले समवायसम्बन्धेन नास्ति इति तु वाक्यं सत्यं भूतले अस्ति किन्तु समवायसम्बन्धेन भूतले नास्ति तद्वाक्यं सत्यं किन्तु निरर्थम् अस्ति घटः
निरर्थकम् अस्ति नाम तस्य तेन किमपि लाभः नास्ति किमर्थं तत्र निरर्थकं यूस्लेस् हा तत्र निरर्थकम् अस्ति
प्रयोगः
उपयोगः नास्ति
तर्हि अस्य कथनेन लाभः कः प्रयोजनं कः इति पृच्छति वस्तुतः अभावः नास्ति घटस्य अभावः नास्ति समवायसम्बन्धेन अभावः एव अस्ति किन्तु अभावः नास्ति
हा तत्र घटः अस्ति तत्र प्रतिपक्षी वदति नाम घटस्य अभावः इति विषयः कथं वदामि यतोहि घटं पश्यामि अहं घटस्य अभावः कथम् अहं वक्तुं शक्नोमि यतोहि अहं घटं पश्यामि घटः अस्ति घटाभावः नास्ति अतः अभावः अत्र नास्ति हा इति
घट संयोगसम्बन्धेन भूतले अस्ति एव इति उक्तवान् घटं पश्यामि अपि अतः एतद् वाक्यं भूतले समवायसम्बन्धे घट नास्ति इति वाक्यं सत्यं किन्तु घटभूतले अस्ति अतः वाक्यस्य प्रयोजनं किम् इति
तत्र वयं वदामः घटः नास्ति इति वदामः किन्तु घटः अत्र अस्ति भूतले अस्ति अतः तत्र समस्या अस्ति खलु नास्ति इति वदामः समयसम्बन्धिन भूतले घटः नास्ति इति वदामः किन्तु भूतले घटः अस्ति अतः तत्र समस्या अस्ति हा अतः अग्रे केवलं
समवायसम्बन्धेन वक्तुं न शक्यते यतोहि संयोगसम्बन्धेन अस्ति न तु समवायसम्बन्धेन अतः प्रतिपक्षी न प्रश्नः समवायसम्बन्धेन अभावः अस्ति इति वाक्यस्य प्रयोजनं किम्? किन्तु तस्य
समवायसम्बन्धस्य समवायसम्बन्धेन घटः नास्ति, घटस्य अभावः अस्ति इति न, घटः अस्ति इति एव अस्ति, घटः समयसम्बन्धेन घटः नास्ति इति एव तस्य प्रयोजनं तत्र किमपि नास्ति. यदि वदामः तत्र घटः भूतले अस्ति इति वक्तुं शक्नुमः, किन्तु केन सम्बन्धेन इति प्रश्नः भवति चेत् संयोगसम्बन्धेन इति एव वक्तुं शक्नुमः, समयसम्बन्धेन इति कदापि न वक्तुं शक्नुमः. अतः तत्र केवलं सम्बन्धस्य विषये एव तत्र किमपि न वक्तुं शक्नुमः, किन्तु घटः नास्ति इति तत्तु न वक्तुं शक्नुमः तत्र अभावः. अतः अग्रे अपि सर्वोपरि
सर्वोपरि अस्ति इदं तथ्यं.
तथ्यं नाम सत्यं, नाम तावदेव.
तथ्यं यत् अभावः नास्ति, घटः शारीरिकरूपेण अस्ति भूतले. प्रति पक्षिणः एकः ज्ञानमेव इच्छति, भूतः अस्ति वा नास्ति वा इत्येव इच्छा. अतः सः विवरणस्य उपयोगं न अवगच्छति.
हा, नाम तत्र कथं वयं वदामः तत्र घटः नास्ति भूतले, घटः नास्ति समवायसम्बन्धेन भूतलः भूतले घटः नास्ति इति यदि वदामः तत्र भूतले घटः नास्ति इति एव वार्ता भवति, किन्तु सा वार्ता नास्ति, केवलं समवायसम्बन्धेन नास्ति इति एव वार्ता भवेत् खलु इति. अतः तत्र अभावस्य अभावः अत्र नास्ति, घटाभावः नास्ति. अत इदं तु सत्यं खलु, तत्र घटस्य अभावः अत्र नास्ति, यतोहि अहं घटं पश्यामि, घटः अस्ति शारीरिकरूपेण, अस्ति भूतले इति सः वदति. अस्तु, समीचीनम्. एतावत् प्रश्नः, कोऽपि प्रश्नः अस्ति वा? सर्वे अवगच्छन्ति वा तत्र? प्रतिपक्षी किं वक्तुम् इच्छति? प्रायशः एषः प्रश्नः सर्वेषां मनसि अपि आसीत् इति. हा, अस्तु, इदानीं तत्र पश्यामः तत्र सिद्धान्ते किं वदति इति. तत्र कः त्वका पठितुम् इच्छति तत्र? पठितुमिच्छति. अस्तु, तत्र नीता भगिनी पठितुम् इच्छति वा अग्रे? तत्र सिद्धान्ते किं वदति इति.
आम्, सिद्धान्ते इदानीं यत् उक्तं भवता, घटः अस्ति घटाभावः नास्ति, किन्तु अस्मिन् प्रसङ्गे किञ्चित् चिन्तनीयं भवति, यतोहि समवायसम्बन्धेन घटः भूतले नास्ति इति वाक्यं तु सत्यमेव. सत्यम् इत्युक्तौ कथम् उत्पादनीयं तत् वाक्यं सत्यम् इति चेत् विस्तरेण कथं वक्तव्यम् अस्माभिः येन वार्ता स्पष्टं स्यात्?
अतः सिद्धान्ति किं वदति एतावत्?
हा, अत्र घटः अस्ति, घटः अस्ति किन्तु संयोगसम्बन्धेन अस्ति, समवायसम्बन्धेन घटः भूतले नास्ति इति अस्ति. तत् इत्युक्तौ कथं, हा, तत् घटः समवायसम्बन्धेन भूतले नास्ति, किन्तु वयं घटः अस्माभिः घटः तु दृश्यते. घटः अस्ति, घटः भूतले अस्ति किन्तु संयोगसम्बन्धेन अस्ति. यदि समवायसम्बन्धस्य विचारं वयं कुर्मः, तत् घटाभावः इति शब्दस्य प्रसक्तिः भवितुम् अर्हति.
साक्षात् घटाभावः अस्ति वा अथवा नास्ति वा?
घटाभावः तु नास्ति एव, घटः तु अस्ति, कथं घटाभावः अस्ति? नास्ति. तत् वाक्यं सत्यम् इति चेत् विस्तरेण कथं वक्तव्यम् अस्माभिः येन वार्ता स्पष्टं स्यात्? तस्य स्पष्टीकरणार्थं भिन्नप्रकारेण एव अस्माभिः वक्तव्यं अस्ति इति सूचितमस्ति.
तत्र स्पष्टीकरणं भवेत् तत्र तस्य विस्तररूपेण किं ज्ञानम् अस्ति अस्मिन् प्रसङ्गे इति वक्तव्यं भवति अस्माभिः इति वदति. समीचीनं भगिनि. हा तदेव. हा तत्र
भूतले संयोगसम्बन्धावच्छिन्नप्रतियोगिता घटाभावः नास्ति. तो अत्रापि यदा वयं चित्रं कृतवन्तः तेन प्रकारेण भूतले संयोगसम्बन्धावच्छिन्नप्रतियोगिता प्रतियोगिता अस्ति. संयोगसम्बन्धावच्छिन्नप्रतियोगिता भूतले, यतोहि भूतल इति नीचैः भूतले अधिकर्णता, अनन्तरम् अभावः. भूतले अधिकर्णता अभाव अस्ति तत् वयं वक्तुं शक्नुमः. अभाव भूतले
तत्र
अधिकरणता.
यदि चित्रं लिखामः तत्र आदेयत एतत् सर्वं, किन्तु तत्र केन सम्बन्धावच्छिन्ना भवति तत्र अत्र किं वदति अत्र किं
संयोगसम्बन्धावच्छिन्नप्रतियोगिता
का घटाभावः नास्ति इति वदति.
नास्ति
नाम किम्
इत्युक्ते
भूतले तत्र
यदि भूतले समवायसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावः अस्ति.
हा यतोहि भूतले घटः समवायसम्बन्धेन न भवितुम् अर्हति,
न भवितुम् अर्हति.
किन्तु संयोगसम्बन्धेन भूतले घटः भवितुम् अर्हति वा?
भूतले घटः संयोगसम्बन्धेन भवितुम् अर्हति.
हा अतः एषः अभावः संयोगसम्बन्धावच्छिन्न प्रतियोगिताकः घटाभावः भूतले नास्ति.
नास्ति
केवलम् एषः अभावः तत्र कुत्र अस्ति तत्र संयोगसम्बन्धाव अभावः तत्र एतत् तत्र कपाले भवितुम् अर्हति, यतोहि कपाले समवायसम्बन्धावच्छिन्न प्रतियोगिताकः घटाभावः तत्र. हा अस्तु तत्र क्षम्यतां. हा तत्र दोषया उक्तं. हा त्यजामः. अस्तु अतः तत्र संयोगसम्बन्धावच्छिन्न प्रतियोगिता का घटाभावः भूतले नास्ति.
भूतले नास्ति
यतोहि भूतले संयोगसम्बन्धेन घटः भवितुम् अर्हति. हा अस्तु अग्रे.
समवायसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावः अस्ति.
हा यतोहि समयसम्बन्धेन भूतले घटः न भवितुम् अर्हति.
इत्युक्ते यदि चित्रलेखनं वयं कुर्मः तत् तत्र समवायसम्बन्धावच्छिन्नप्रतियोगिताक घटाभावः तेन
चित्रमासीत्. एतत् चित्रं सत्यमेव, किन्तु अत्र अत्र यदि संयोगः इति वदामः तत्र एतत् न भवितुम् अर्हति.
न भवितुम् अर्हति समवाय एव
संयोगः तत्र मा भूत्, अन्यत् किमपि अन्य कोऽपि सम्बन्धः समीचीनं, किन्तु संयोगः अस्ति चेत् दोषः भवति. अत्र एतत् सर्वं न भवति. अस्तु समीचीनम्. अतः
समवायसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावः अस्ति. अतः तत् वाक्यं सत्यं. ज्ञानस्य सत्यत्व प्रतिपादनार्थम् एवं विवरणाम् उचितम् एव.
हा तत्र प्रावश्य विवरणम् उचितम् एव इति भवेत्. हा
ज्ञानस्य सत्यत्वं प्रतिपादनार्थम् एव विवरणम् उचितम् एव.
हा एवं विवरणम् एतादृशं विवरणम् उचितम् एव अस्ति. हा अस्तु. हा एतावत् समीचीनं भगिनि, धन्यवादः. हा अग्रे अपि किञ्चित् वदति. हा सिद्धान्ती किञ्चित् अपि अग्रे वदति. अस्तु पश्यामः तत्र अग्रे. विमला भगिनी अग्रे पठितुम् इच्छति वा?
आं महोदय. कुतः
तत्र यथा इति चैत्रः दृश्यते वा भगिनि?
आं महोदय. पठन्ती अस्मि. यथा चैत्रः धनवान् धनं वित्तकोशे अस्ति चैत्रस्य हस्ते न, अतः संयोगसम्बन्धेन धनं नास्ति. संयोगसम्बन्ध अवच्छिन्न प्रतियोगिताकधनाभावः सत्त्वे अपि स्वस्वामित्वसम्बन्ध अवच्छिन्न प्रतियोगिताकधनाभावः नास्ति। चैत्रः तस्य धनस्य स्वामी अस्ति, अतः एतत् वाक्यं सत्यम् अस्ति। एवं रीत्या ज्ञानप्रमाणनिरूपणार्थं विवरणं दातव्यं भवति। उदाहरणे चैत्रः धनवान् अस्ति, तस्य धनवित्तकोशे अस्ति, हस्ते नास्ति।
हा, यदि हस्ते आसीत् तत्र किं
संयोगसम्बन्धेन भवेत्?
हा, नाम तत्र धनम् इति अस्ति, धनं तत्र हस्तः हस्ते भवति,
परन्तु अद्य नास्ति।
अद्य नास्ति,
तेन कारणेन वयं वक्तुं शक्नुमः यत् संयोगसम्बन्धेन हस्ते धनं नास्ति।
अतः तत्र तत्र संयोगसम्बन्धेन धनं हस्ते नास्ति इति कथं वदामः वयं? संयोगसम्बन्ध
अवच्छिन्न प्रतियोगिताक धनाभावः।
हा, तत् हस्ते अस्ति। हा, किन्तु
वित्तकोशे धनमस्ति, स्वस्वामित्वसम्बन्ध अवच्छिन्न, तत्र स्वस्वामित्वम् अवच्छेदकधर्ममस्ति।
हा, नाम तत्र चैत्रः अस्ति, एतद् एषः सम्बन्धः वयं न दृष्टवन्तः, किन्तु किञ्चित् वदामि। नाम तत्र धनमस्ति, चैत्रः अस्ति, तयोः मध्ये कीदृशः सम्बन्धः इत्युक्ते स्वस्वामित्वं, नाम तत्र
धनस्य
स्वामी अस्ति, चैत्रः स्वामी अस्ति धनस्य, अतः चैत्रे स्वामित्वम् अस्ति। हा, अतः तत्र स्वस्वामित्वसम्बन्धः
अवच्छिन्न प्रतियोगिताक धनाभावः अस्ति, धनाभावः नास्ति।
हा, नास्ति, यतोहि तेन सम्बन्धेन तत्र स्वामित्वसम्बन्धेन धनं चैत्रे
वित्तकोशे अस्ति, चैत्रस्य धनमस्ति।
हा, वित्तकोशे धनं संयोगसम्बन्धेन अस्ति खलु। हा, तत्र धनं इदानीं वित्तकोशे संयोगसम्बन्धेन अस्ति, वित्तकोशे अस्ति,
अस्तु,
चैत्रः अन्यत्र अस्ति,
तेन धनाभावः अस्ति, स्वस्वामित्वसम्बन्ध अवच्छिन्न प्रतियोगिताकधनाभावः अस्ति
नास्ति।
अस्तु अस्तु, सोरि सोरि, धनाभावः नास्ति।
अत्र एतादृशः अस्ति, अतः तत्र केवलं तत्र शैली भिन्ना अस्ति, नाम वक्तुमिच्छामः धनः धनं संयोगे सम्बन्धेन हस्ते अस्ति चेत् तत्र संयोगसम्बन्ध अवच्छिन्न प्रतियोगिता का धनाभावः नास्ति, नास्ति इति वदामः। इदानीं तत्र तद् अस्मिन् सन्दर्भे अस्ति, यतोहि धनं चैत्रे संयोगसम्बन्धेन नास्ति, किन्तु धनं साक्षात् कुत्र अस्ति? वित्तकोशे अस्ति, अतः वित्तकोशे वित्तकोशम् अधिकरणं धनं वित्तकोशे तत्र संयोगसम्बन्धेन एव भवति। अतः तत्र प्रश्नः उदेति, धनं केन सम्बन्धेन चैत्रे अस्ति इति प्रश्ने सति स्वस्वामित्वसम्बन्धेन इति। अतः तत्र धनं स्वस्वामित्वसम्बन्धेन चैत्रे अस्ति, अतः तस्य अभावः तेन अवच्छिन्न अभावः नास्ति, अतः तत्र स्वस्वामित्वसम्बन्धावच्छिन्न प्रतियोगिताकधनाभावः चैत्रे नास्ति। अग्रे
तदेव, चैत्रः अस्य तस्य धनस्य स्वामी अस्ति, अतः एतत् वाक्यं सत्यमस्ति। एवं रीत्या ज्ञानप्रमाणनिरूपणार्थं विवरणं दातव्यम् अस्ति, विविधरीत्या नानारीत्या वक्तव्यमस्ति ज्ञाननिरूपणार्थं।
हा, अतः तत्र यदि एतादृशवर्णनं तत्र एतत् लौकिक उदाहरणं लौकिक उदाहरणे अपि वयं जानीमः, तत्र सर्वदा संयोगसम्बन्धः इति एकः एव सम्बन्धः भवति इति नास्ति। यदि हस्ते अस्ति संयोगसम्बन्धेन भवति, यदि अन्यत्र अस्ति तत्र अन्यः सम्बन्धः भवेत्, अतः तत्र सम्बन्धस्य विषयः अपि तत्र प्रविशति अतः तत्र केन सम्बन्धेन अविच्छिन्ना इति वक्तव्यं भवति अतः तत्र वाक्यं भवति तत्र समयसम्बन्धेन घटः तत्र भूतले नास्ति इति एतादृशवाक्यस्य वर्णनं यदि तत्र तस्य अभ्यासं वयम् इदानीं कुर्मः अग्रे एतादृशसन्दर्भः यदा भवति तस्मिन् सन्दर्भे कथं ज्ञानस्य विवरणं दातुं शक्नुमः इति अस्माकं पूर्वज्ञानं भवति हा अस्तु समीचीनं भगिनि अन्य कोऽपि प्रश्नः एतावत् अस्तु तत्र अग्रे तत्र धनश्री भगिनी पठितवती वा अस्तु
आं महोदय पठितवती
अस्तु तत्र एतावत् कः अथवा का न पठितवती शुभदा भगिनी न पठितवती इति मन्ये हा अस्तु शुभदा भगिनी
आं महोदय नमस्कारः
नमस्कारः भगिनि तत्र
प्रकृतौ यद्यपि घटः भूतले अस्ति संयोगसम्बन्धेन समवायसम्बन्धावच्छिन्नप्रतियोगिता प्रतियोगिताकघटाभावः अस्ति प्रतियोगिभेदेन अभावः भिन्नः भवति प्रतियोगितावच्छेदकसम्बन्धभेदेन प्रतियोगितावच्छेदकधर्मभेदेन अभावः भिन्नः भवति प्रकृतौ यद्यपि घटः भूतले अस्ति संयोगसम्बन्धेन समवायसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावः अस्ति तदेव वयम् अधुना दृष्टवन्तः यद्यपि घटः भूतले अस्ति घटः भूतले अस्ति इति संयोगसम्बन्धः अस्ति तयोः मध्ये संयोगसम्बन्धः इति उच्यते तत्र समवायसम्बन्धः नास्ति अतः समवायसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावः इति उच्यते प्रतियोगिभेदेन अभावः भिन्नः भवति
इति इत्युक्ते किम्
प्रतियोगिभेदेन अभावः भिन्नः भवति
नाम अभावः अस्ति चेत् अभावे अनियोगिता अस्ति अनियोगिता अस्ति चेत् तया निरूपिता प्रतियोगिता अस्ति प्रतियोगी अपि भवति खलु यदि प्रतियोगी भिन्नः अस्ति अभावः अपि भिन्नः भवति खलु नाम तत्र पटः प्रतियोगी अस्ति चेत् पटाभावः भवति घटः प्रतियोगी अस्ति चेत् घटाभावः अनियोगी भवति खलु अतः तत्र यदि प्रतियोगी यः अस्ति किन्तु अन्यं प्रतियोगिनं स्थापयामः अभावः अपि तत्र भिन्नः भवति खलु यतोहि तत्र तयोः मध्ये निरूप्यनिरूपकभावः अस्ति अत्र किं भवति तत्र प्रतियोगी कदा भिन्नः भवति नाम यदि वयं वदामः घटः प्रतियोगी इति वदामः घटः प्रतियोगी इति वदामः तस्मिन् घटे तत्र प्रतियोगिता अस्ति खलु तर्हि एव वयं वदामः घटः प्रतियोगी इति किन्तु प्रतियोगिता यदि भिन्ना भवति तदा एष प्रतियोगी अपि भिन्नः भवति खलु यद्यपि सः एव घटः किन्तु यदि प्रतियोगिता भिन्ना अस्ति एषः प्रतियोगी अपि भिन्नः भवति खलु नाम तत्र एकस्य पुरुषस्य एव विवरणं तत्र रामः इति स्वीकुर्मः तत्र यदि वयं वदामः तत्र ज्ञानस्य विषयः अस्ति रामः दशरथस्य पुत्रः इति यदि वदामः तद् ज्ञानं तदेकं ज्ञानं किन्तु यदि वदामः रामः लक्ष्मणस्य अग्रजः तद् भिन्नं ज्ञानं खलु नाम तत्र सम्बन्धः भिन्नः अस्ति तत्र रामे एव तत्र विषयता अस्ति विषयता रामे अस्ति किन्तु विषयता भिन्ना अस्ति खलु प्रथमवाक्ये या विषयता अस्ति सा भिन्ना अस्ति खलु द्वितीयज्ञाने यद्यपि विषयः रामः एव किन्तु विषयता भिन्ना अस्ति
भिन्ना
रामः दशरथस्य पुत्रः इति तत्र विषयता एका, अन्या विषयता रामः लक्ष्मणस्य अग्रजः इति ज्ञाने. तथैव यदि वयं वदामः तत्र प्रतियोगितासमवायसम्बन्धावच्छिन्नप्रतियोगिता इति वदामः, अपि संयोगसम्बन्धावच्छिन्नप्रतियोगिता इति यदि वदामः, तत्र प्रतियोगिता भिन्नाः खलु इदानीम्.
आम्,
यतोहि अवच्छिन्ना एका समयसम्बन्धेन अवच्छिन्ना अस्ति, अन्या संयोगसम्बन्धावच्छिन्ना अस्ति, अतः तत्र प्रतियोगिता भिन्ना अस्ति चेत् प्रतियोगिता प्रतियोगी भिन्नः भिन्नः भवति. प्रतियोगी भिन्नः अस्ति चेत् अभावः अपि भिन्नः भवति खलु.
परन्तु प्रतियोगी तु घटः एव अस्ति खलु.
किन्तु तस्मिन् कीदृशी प्रतियोगिता अस्ति इति एव दृष्ट्वा प्रतियोगी सः एव प्रतियोगी अथवा अन्यः प्रतियोगी इति वक्तुं शक्नुमः खलु. नाम यथा रामः विषयः एव, किन्तु तत्र द्वैविध्यम् इति प्रदर्शितवन्तः खलु पूर्वं. सः विषयः एव, किन्तु तस्मिन् विषयता द्वयम् आसीत् खलु. तथैव अत्र घटे प्रतियोगिता द्वयमस्ति. एका अस्ति संयोगसम्बन्धावच्छिन्ना, अन्या अस्ति समवायसम्बन्धावच्छिन्ना. अतः तत्र प्रतियोगिता भिन्ना अस्ति. प्रतियोगिता भिन्ना अस्ति चेत् प्रतियोगी भिन्नः अस्ति. प्रतियोगिभेदेन अभावः भिन्नः भवति. प्रतियोगिता अवच्छेदकसम्बन्धे भेदेन प्रतियोगिता प्रतियोगितावच्छेदकधर्मभेदेन अभावः भिन्नः भवति. अतः यदि वयं वदामः घटाभावः नास्ति इति, वयं चिन्तयामः तत्र संयोगसम्बन्धावच्छिन्नप्रतियोगिता का घटाभावः नास्ति इति वयं चिन्तयामः, किन्तु समवायसम्बन्धावच्छिन्नप्रतियोगिता कः घटाभावः अस्ति अत्र इति अस्ति. अस्तु, एतावत् वयं पठितवन्तः, समीचीनं, समयः अपि जातः, क्षम्यतां. किन्तु अग्रे एतत् करपत्रं पठित्वा तदनन्तरं तत्र अन्यत् करपत्रम् अस्ति तत्र, यत् तादात्म्यसम्बन्धस्य विषये तत्र एतदपि तत्र करपत्रे अस्ति. तत्र अस्ति नास्ति अभावः इति अन्यत्, तदपि तस्य लिङ्क् प्रेषयामि. तत्र करपत्रद्वयं वयम् अग्रिमे वर्गे पठामः तर्हि. अस्तु, समीचीनं. तत्र एतत् कृत्वा तत्र आकाशस्य लक्षणं भव समाप् तस्य तद् तस्य पठनं अभवत्. तदनन्तरं तत्र गुणाः इति तत् अग्रे पश्यामः. किन्तु अग्रिमवर्गे अन्यत् करपत्रं यदस्ति तस्य पठनं कुर्मः. तदनन्तरम् अग्रे तत्र पेज् 49 मध्ये अग्रे सरामः. अस्तु तर्हि, धन्यवादः, नमस्काराः.
धन्यवादः.
धन्यवादः
महोदय, नमस्कारः.